इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य आन्ध्रप्रदेशस्य यात्रायां भविष्यति। भ्रमणावधौ सः नन्द्याल जनपदस्य श्रीशैलम् स्थितस्य श्रीभ्रमराम्बा मल्लिकार्जुनस्वामी वरला देवस्थानम् इत्यत्र पूजां दर्शनं च करिष्यति। सः श्रीशैलम् नगरस्य श्रीशिवाजी स्फूर्ति केन्द्रम् अपि गमिष्यति। प्रधानमन्त्री अपराह्णे कुरुनूल नगरे प्रायः 30,14,000 कोटिरूप्यकाणां बहुविध विकास परियोजनानाम् उद्घाटनं शिलान्यासं राष्ट्राय समर्पणञ्च करिष्यति। एताः परियोजनाः उद्योग विद्युत मार्ग रेलमार्ग रक्षाविनिर्माण पेट्रोलियम प्राकृतिक इंधनादि क्षेत्रेषु च विस्तृताः सन्ति। अस्मिन् अवसरे श्रीमोदी एकां सार्वजनिक सभाम् अपि सम्बोधयिष्यति। राज्य विधानसभा निर्वाचनात् पूर्वं बिहार राज्ये प्रचारस्य गतिः वर्धितास्ति। भारतीय जनता पार्टीति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्र मोदी ह्यः बिहार निर्वाचनाय भाजपा बूथस्तरीय कार्यकर्तृभिः सह संवादसत्रेण स्वकीयस्य दलस्य प्रचारस्य आरम्भम् अकरोत्। सः मेरा बूथ सबसे मजबूत इत्येतस्मिन् कार्यक्रमे कार्यकर्तृभिः सह वार्तालापम् अकरोत्। संवादस्य समये श्रीमोदी सर्वेभ्यः बूथ कार्यकर्तृभ्यः स्वक्षेत्रेषु प्रत्येकं कुटुम्बं विविध सर्वकारीय योजनानां लाभानां विषये सूचयन्तु इति उक्तवान्। सः दृढविश्वासं प्रकटितवान् यत् बिहारस्य महिलाः नवम्बर मासस्य 14 दिनांके एनडीए पक्षस्य विजयानन्तरं पुनः दीपावली उत्सवं सुनिश्चेतुं महत्वपूर्णां भूमिकां निर्वहिष्यन्ति इति। प्रधानमन्त्री अवदत् यत् राज्ये एनडीए सर्वकारेण सद्यः एव आरब्धया महिला रोजगार योजनया बिहार राज्यस्य महिलाः प्रसन्नाः सन्ति इति। भारतीय जनता पार्टीति दलेन बिहार विधानसभा निर्वाचनाय 18 प्रत्याशिनां तृतीया सूची प्रकाशिता। नरकटियागंज क्षेत्रात् संजय पांडे, चनपटिया क्षेत्रात् उमाकांत सिंहः, चिरैया क्षेत्रात् लालबाबू प्रसाद गुप्ता च नैर्वाचनिक समरांगणे सन्ति। कोचाधामन क्षेत्रात् वीना देवी, राघोपुर क्षेत्रात् सतीश कुमार यादवः, पीरपैंती क्षेत्रात् मुरारी पासवानः च स्पर्धिष्यति। एतैः सह दलेन एकाधिकैकशत क्षेत्राणां कृते प्रत्याशिनां घोषणा कृता। उत्तर रेलवे विभागः अस्मिन् वर्षे दीपावल्याः छठ पूजायाः च अवसरे उत्सवस्य आवश्यकतां पूरयितुं 1,000+ अतिरिक्तानि विशिष्ट रेलयानानि चालयति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् उत्तर रेलवे विभागस्य महाप्रबन्धकः अशोक कुमार वर्मा अवदत् यत् 24-होरापर्यन्तं निरीक्षणं सुनिश्चीय कार्यक्षमता प्रवर्धनाय समर्पितः नियन्त्रण कक्षा स्थापित अस्ति इति।
दिवाली प्लस छठ का कंबाइंड पीरियड एक ऐसा हो जाता है कि लोगों को छुट्टी मिल जाती है, उस पीरियड में लोग अपना प्लान कर लेते हैं। तो हम लोग की कोशिश ये है कि हम लोग ज्यादा से ज्यादा लोगों को सुविधा के साथ में उनके घरों तक पहुंचा पाए, और जब वो रिटर्न आए तो हमारे पास रिटर्न ट्रैफिक की तैयारी हो। उसमें दो चीजें हैं। एक चीज है कि हमें एक्स्ट्रा ट्रेनें और एक्स्ट्रा कितनी सीटें क्रिएट करनी है या सीटिंग कैपेसिटी कितनी क्रिएट होनी है, और दूसरा कि स्टेशनों पे जो यात्री आते हैं उनके हैंडलिंग के लिए क्या सुविधाएं और बढ़ानी है।
सर्वकारः अवदत् यत् नक्सलवादेन सर्वाधिक प्रभावितानां मण्डलानां संख्या 63 अभवत्। अधुना केवलं छत्तीसगढस्य बीजापुर सुकमा नारायणपुर मण्डलानि एव वामपक्ष उग्रवादेन सर्वाधिक प्रभावितानि सन्ति। एकस्मिन् वक्तव्ये गृहमन्त्रालयः अकथयत् यत् एतत् प्रधानमन्त्री प्रशासनस्य नक्सलमुक्तभारतस्य निर्माणस्य दृढनिश्चयस्य दिशि बृहत् प्रगति प्रदर्शयति। मन्त्रालयः अवदत् यत् 26,000+ मार्चमासस्य 31 दिनांकपर्यन्तं नक्सल उपद्रवं पूर्णतया उन्मूलनाय सर्वकारः प्रतिबद्धः अस्ति इति। इतः पूर्वं महाराष्ट्रस्य गढ़चिरौली मण्डले 61 नक्सलवादिनः आत्मसमर्पणं कृतवन्तः इति वार्ताः।